अथ चतुर्थोऽध्यायः प्रथमः पादः न्याप्रातिपदिकात् सोजसमोच्छष्टाभ्याम् भिस्नेभ्याम् भ्यस्नसिभ्याम् भ्यस्नसोऽसाम् न्योऽस्सुप स्त्रियाम् अजाद्यतष्टाप् रुन्नेभ्यो ङीप् उगितश्च वनोरच पादोऽन्यतरस्याम् तावृचि न षट्स्वस्रादिभ्यः मनः अनो बहुव्रीहेः डाबुभाभ्यामन्यतरस्याम् अनुपसर्जनात् टिड्ढाणैद्वयसद्दग्धैमात्रत्तयप्ठक्ठैकैक्वरपः यञश्च प्राचांस्फतद्धितः सर्वत्र लोहितादिकतन्तेभ्यः कौरव्यमाण्डूकाभ्याञ्च वयसि प्रथमे द्विगोः अपरिमाणविस्ताजितकम्बल्येभ्यो न तद्धितलुके काण्डान्तात्क्षेत्रे पुरुषात्प्रमाणेऽन्यतरस्याम् बहुव्रीहेरूधसो ङीष् सङ्ख्याव्ययादेर्ङीप् दामहायनान्ताच्च अन उपधालोऽपिनोऽन्यतरस्याम् नित्यम् संज्ञाछन्दसोः केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च रात्रेश्चाजसौ अन्तर्वत्पतिवतोर्नुक् पत्युर्नो यज्ञसंयोगे विभाषासपूर्वस्य नित्यम् सपत्न्यादिषु पूतक्रतोरै च वृषाकप्यग्दिकुसितकुसिदानामुदात्तः मनोरौवा वर्णादनुदात्तात्तोपधात्तो नः अन्यतो ङीष् षिद्गौरादिभ्यश्च जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्यमत्रावपनाकृत्रिमाश्राणा स्थौल्यवर्णानाच्छादनायो विकार मैथुनेच्छाकेशवेशेषु शोणात् प्राचाम् वोतो गुणवचनात् बह्वादिभ्यश्च भुवश्च नित्यम् छन्दसे पुंयोगादाख्यायाम् इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवन मातुलाचार्याणामानुक् क्रीतात्करणपूर्वात् तादल्पाख्यायाम् बहुव्रीहेश्चान्तोदात्तात् अस्वाङ्गपूर्वपदाद्वा स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च न क्रोडादिबह्वचः सह नैविद्यमानपूर्वाच्च नखमुखात्संज्ञायाम् दीर्घजिह्वी च छन्दसे दिक्पूर्वपदाङ्गीप् वाहः सख्यशिष्वेति भाषायाम् जातेरस्त्रीविषयादयोपधात् पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च इतो मनुष्यजातेः ऊङुतः बाह्वन्तात्संज्ञायाम् पङ्गोश्च ऊरूत्तरपदादौपम्ये संहितशफलक्षणवामादेश्च कद्रुकमण्डल्वोश्छन्दसि संज्ञायाम् शाङ्गरवाद्ययोङीन् यङश्चाप् आवट्याच्च तद्धिताः योनस्तिः अणियोरनार्षयोर्गुरूपोत्तमयोश्यङ्गोत्रे गोत्रावयवात् क्रौड्यादिभ्यश्च दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठे विद्धिभ्योऽन्यतरस्याम् समर्थानां प्रथमाद्वा प्राग्दीव्यतोण् अश्वपत्यादिभ्यश्च दित्यदित्यादित्यपत्युत्तरपदाण्यः उत्सादिभ्योऽ स्त्रीपुंसाभ्याम् नैस्नयौ भवनात् द्विगोर्लुगनपत्ये गोत्रे लुगचि योनिलुक् फक्फिणोरन्यतरस्याम् तस्यापत्यम् एको गोत्रे गोत्राद्यून्यस्त्रियाम् अत इय बाह्वादिभ्यश्च सुधातुरकम् च गोत्रे कुञ्जादिभ्यश्फै नडादिभ्यः फक् हरितादिभ्यो यः ञञोश्च शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु द्रोणपर्वतजीवन्तादन्यतरस्याम् अनृष्यानन्तरीयेऽपिदादिभ्योऽ गर्गादिभ्यो यञ् मधुबभ्वोर्ब्राह्मणकौशिकयोः कपिबोधादाङ्गिरसे वतण्डाच्च लुक्स्त्रियाम् अश्वादिभ्यः फञ् भर्गात्रैगर्ते शिवादिभ्योण् अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ऋष्यन्धकवृष्णिकुरुभ्यश्च मातुरुत्सङ्ख्यासम्भद्रपूर्वायाः कन्यायाः कनेन च विकर्णशृङ्गच्छगलाद्वत्सभरद्वाजात्रिषु पीलाया वा ढक्चमण्डूकात् स्त्रीभ्यो ढक् द्व्यचः इतश्चानियः शुभ्रादिभ्यश्च विकर्णकुशीतकात् काश्यपे भ्रुवो वुक्च कल्याण्यादीनामिनङ् कुलटाया वा चटकाया ऐरक् गोधायाढ्रक् आरगुदीचाम् क्षुद्राभ्यो वा पितृष्वसुच्छन् ढकिलोपः मातृष्वसुश्च चतुष्पाद्भ्यो ढञ् गृष्ट्यादिभ्यश्च राजस्वशुराद्यत् क्षत्राद्घः कुलात्खः अपूर्वपदादन्यतरस्यायड्ढकयौ महाकुलादैखयौ दुष्कुलाढ्ढक् स्वसुच्छः भ्रातुर्व्यच्च व्यंसपत्ने रेवत्यादिभ्यष्ठक् गोत्रस्त्रियाः कुत्सनेन च वृद्धाढ्ढक् सौवीरेषु बहुलम् फेश्छ च फाण्टाहृतिमिमताभ्याम् न फिञौ कुर्वादिभ्योऽण्यः सेनान्तलक्षणकारिभ्यश्च उदीचामिय तिकादिभ्यः फिञ् कौशल्यकार्मार्याभ्याञ्च अणोद्व्यचः उदीचाम् वृद्धादगोत्रात् वाकिनादीनाम् कुक्च पुत्रान्तादन्यतरस्याम् प्राचामवृद्धाद्भिन्बहुलम् मनोर्जाता वञ्यतौ शुक्च अपत्यम् पौत्रप्रभृतिगोत्रम् जीवति तु वंश्ये युवा भ्रातरि च ज्यायसि वान्यस्मिन्सपिण्डे स्थविरतरे जीवति वृद्धस्य च पूजायाम् यूनश्च कुत्सायाम् जनपदशब्दात्क्षत्रियादञ् साल्वेयगान्धारिभ्याञ्च द्वैमगधकलिङ्गसूरमसादण् वृद्धेत्कोसलाजादाञ्यङ् कुरुनादिभ्योऽण्यः साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् ते तद्राजाः कम्बोजाल्लुक् स्त्रियामवन्ति कुन्तिकुरुभ्यश्च अतश्च न प्राच्यभर्गादियौधेयादिभ्यः इति प्रथमः पादः।